एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। अविरलवृष्टेः पश्चात् दुरापन्नेषु जलविप्लव भूस्खलनेषु निपत्य जाजरकोट जनपदे जनद्वयम् विलुप्तम् वर्तते। भेरी नगरपालिकायाः द्वितीयवडा क्षेत्रस्य फारुलास स्थानस्य चतुःपञ्चाशद्वर्षीय उमासिंह खत्री, सप्ततिवर्षीय भीमबहादुर कार्की च विलुप्तौस्ता इति प्रेरणा ज्ञापितम् वर्तते। वृष्टेः पश्चात् भेरी नगरपालिकायाः प्रथम द्वितीय तृतीय वडा क्षेत्रेषु भूस्खलनेन त्रयाणाम् गृहाणाम् प्रवाहणानन्तरम् सप्त जनाः आहताः वर्तन्ते। भूस्खलनेन भेरी नगरपालिकायाः द्वितीयवडा क्षेत्रस्य विभिन्न वसतिषु भूस्खलनेन बहूनि गृहाणि संकटापन्नानि वर्तन्ते। भेरी नगरपालिकायाः द्वितीयवडा क्षेत्रस्य बीरखन बहादुर कार्किणः अनुसारेण उमा प्रसाद खत्रे इत्यस्य, शशिराम बिक इत्यस्य च गृहे प्रवाहिते स्तः। नेपाल प्रहरीणा सशस्त्र प्रहरी बल नेपालेन नेपाली सेनया स्थानीयवासीबीच विलुप्तयोः जनयोः अन्वेषणम् आहतानाम् जनानाम् उपचारस्य च व्यवस्था विधीयमानास्ति। पोखरा महानगरपालिकायाः विजयपुर खोला नद्या ह्य प्रवाहितयो द्वयोः बालकयोः परिचय सम्भूतो वर्तते। ह्य विजयपुर खोला नद्या बालकद्वयम् प्रवाह्य विलुप्तम् आसीत्। विलुप्तयोः स्याङ्जा जनपदस्य बिरुवा ग्रामपालिकायाः सप्तमवडा क्षेत्रस्य पोखरा महानगरपालिकायाः चतुर्दशवडा क्षेत्र निवासिनः चन्द्रबहादुर गुरूङ इत्यस्य पुत्र चतुर्दश वर्षीय निकसन गुरूङ, खोटाङ जनपदस्य स्थायी निवासिनः सम्प्रति पोखरा महानगरपालिकायाः चतुर्दशवडा क्षेत्रस्य चारुथे वासिनः सुभाष राई इत्यस्य, पञ्चदश वर्षीय पुत्र ओमन राई च सन्ति स्तः इति कास्की जनपदस्य सहायक प्रमुख जनपदाधिकारी चित्राङ्गत वरालः असूचयत्। रोल्पा जनपदस्य थवाङ ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य कोटल बजार स्थाने दुरापन्ने भूस्खलने निपत्य मृतानाम् जनानाम् संख्या द्वादश प्राप्ता वर्तते। पश्चात्तन समय विलुप्तेषु जनेषु मध्ये प्युठान जनपदस्य सरुमा रानी ग्रामपालिकायाः द्वितीयवडा क्षेत्रस्य ददेरी वर्तिन्याम् राप्ती नद्याम् मध्यभागे, रोल्पा जनपदस्य थवाङ ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य कोटलवारा निवासिनः आसन्नाशीति वर्षाणाम् वयसः अजम्बर पुन मगर इत्यस्य शवस्य प्राप्तेः पश्चात् मृतानाम् जनानाम् समग्र संख्या द्वादश प्राप्तास्ति। भूस्खलने निपत्य अधुनापि एको बालकः विलुप्तो वर्तते चेत् द्वयोः आहतयोः जनयो बुटवलवर्तिनी लुम्बिनी प्रादेशिक चिकित्सालये उपचारः विधीयमानोऽस्तीति प्रहरिणा सूचितम् वर्तते। चितवन जनपदस्य इच्छा कामना ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य सिमलधारा स्थाने पृथ्वीराज मार्गे उपरितः वृक्षसहितस्य शुष्क भूस्खलनस्य पतनात् नारायणघाट स्थानात् काष्ठमण्डप प्रवेशक मुख्य मार्गः पूर्णतः अवरुद्धो वर्तते। गतरात्रौ आसन्न सार्ध दश वादने दुरापन्नस्य भूस्खलनस्य कारणेन पूर्णतः अवरुद्धस्य मार्गस्य अस्य पुनः संचालनाय सप्ततः अष्टौ घण्टाः अपेक्ष्यन्ते इति प्रहरिणा ज्ञापितम् वर्तते। सर्वकारेण जेन्जी युवान्दोलने त्यक्त प्राणानाम् जनानाम् परिवारेभ्य आहतेभ्यो जनेभ्यश्च स्वमृत्युपार्जनानाम् उद्यमस्य सञ्चालनाय पञ्चाशत् लक्ष्याणि रूप्यकाणि यावत् सौविध्यपूर्णम् ऋणम् प्रदातुम् व्यवस्था विहितास्ति। अर्थमन्त्रालयेन परह्यः शुक्रवासरे सौविध्यपूर्ण ऋण सहयोगस्य कृते एतद् विक्रमवर्षीय वृद्धिधनानुदान सम्बद्ध द्वितीय संशोधन कार्यविधिम् प्रकाश्य एवं व्यवस्था विहिता वर्तते। संशोधित कार्यविधौ जेएनजी युवान्दोलने हुतात्म परिवार लक्षिता स्वमृत्युपार्जनोद्यम ऋण पद्धते व्यवस्था विस्तारिता वर्तते। प्रधानमन्त्री बालेन्द्र शाह नेपाल भारतयोर्मध्ये गभीरैतिहासिक सम्बन्धः द्वयो देशयोर्मध्ये विद्यमानम् सहकार्यम् च आगामि दिनेषु अतिरिक्तम् सुदृढम् भविष्यतीति विश्वासम् व्यक्तवान् वर्तते। प्रधानमन्त्रिणा सायेन पूर्वेद्यो भारतस्य अशीतितम स्वतन्त्रता दिवसस्य अवसरे एक्स सञ्जालस्य माध्यमेन स्वीय समकक्षिणं भारतीय प्रधानमन्त्रिणं नरेन्द्र मोदी इत्यमुं भारतीय सर्वकारं भारतीय जनताञ्च प्रति शुभकामना सन्देशाः व्यक्ताः वर्तन्ते। एवमेव भारतस्य स्वतन्त्रता दिवसस्य अवसरे परराष्ट्रमन्त्रिणा शिशिर खनालेन स्वस्य समकक्षिणे भारतस्य विदेशमन्त्रिणे एस जयशंकर इत्यस्मै शुभकामना सन्देशं सम्प्रेष्य हार्दं वर्धापनं शुभकामना च व्यक्तेस्तः। नुवाकोट टोखा छहरे मार्गखण्डे ह्यो दूरापन्नायां बसयानस्य दुर्घटनायां जनद्वयं मृतं वर्तते। नुवाकोट जनपदस्य दुब्चेश्वर महादेवस्य दर्शनाय गतैः तीर्थयात्रिभिः आरूढं बसयानं शिवपुरी ग्रामपालिकायाः सप्तमवडा क्षेत्रस्य थाना भञ्जाङ स्थाने दुर्घटितं सत काभ्रे जनपदस्य बनेपा नगरपालिकायाः अष्टमवडा क्षेत्रस्य चतुःपञ्चाशद् वर्षीया कृष्णमाया प्रजापति डंगोलः रामेछाप जनपदस्य खाणादेवी ग्रामपालिकायाः द्वितीयवडा क्षेत्रस्य पञ्चषष्टि वर्षीया उदयमाया खत्री च मृतेस्ता इति प्रहरी ज्ञापितम् अस्ति। स्वास्थ्य सुरक्षण समित्या अनलाइन प्रविधेर माध्यमेन सुरक्षण कोष कार्यक्रमे आबद्धतायाः प्रक्रिया प्रारब्धा वर्तते। सुरक्षण कार्यक्रमे नूतनाबद्धतायाः सुरक्षण कोष लेख नवीकरणस्य सेवाग्राहिणां व्यक्तिगत विवरणस्य अद्यावधिकीकरणस्य च सर्वाणि कार्याणि अनलाइन प्रविधेर माध्यमेन कर्तुं प्रारब्धं वर्तते। समितेः प्रवक्ता डॉ पवन कुमार शाह स्वास्थ्य सुरक्षण कोष कार्यक्रमे सर्वापि सेवा अतः परं अनलाइन प्रविधेर माध्यमेन प्राप्तुं शक्यते इति असूचयत्। मिथिलाञ्चले ह्यस्तन दिवसाद झूलनोत्सव पर्व प्रारब्धं वर्तते। श्रावण शुक्ल तृतीयात पूर्णिमा तिथिं यावत् पर्वमिदं प्रतिवर्षं समायोज्यते। इति समाचाराः।